ॐ अथ पञ्चमोऽध्यायः सूत उवाच पितर्युपरते तेन जननी ताडिता भृशं क्व वित्तं तिष्ठति ब्रूहे हनिष्येलत्तया न चेत् इति तद्वाक्यसन्त्रासात् जनन्या पुत्र दुःखतः कोपे पातः कृतो रात्रौ तेन सा निधनं गता गोकर्णस्तीर्थयात्रार्थं निर्गतो योगसंस्थितः न दुःखं न सुखं तस्य न वैरी नापि बान्धवः धुन्धुकारी गृहे तिष्ठत् पञ्चपण्यवधूव्रतः अत्युग्रकर्मकर्ता च तत्पोषणविमूढधीः एकदा कुलटास्तास्तु भूषणान्यभिलिप्सवः तदर्थं निर्गतो गेहात् कामांधो मृत्युमस्मरन् यतस्ततश्च संहृत्य वित्तं वेश्म पुनर्गतः ताभ्यो यच्छत्सुवस्त्राणि भूषणानि कियन्ति च बहुवित्तचयन् दृष्ट्वा रात्रौ नार्यो व्यचारयन् चौर्यं करोत्यसौ नित्यम् अतो राजा ग्रहीष्यते वित्तं हृत्वा पुनश्चैनं मारयिष्यति निश्चितम् अतोऽर्थगुप्तये गूढम् अस्माभिः किन्न हन्यते निहत् त्यैनं गृहीत्वार्थं यास्यामो यत्र कुत्रचित् इति तानिश्चयं कृत्वा सुप्तं संबध्य रश्मिभिः पाशं कण्ठे निधायास्य तन्मृत्युमुपचक्रमुः त्वरितं न ममारासौ चिन्तायुक्तास्तदाभवन् तप्ताङ्गारसमूहांश्च तन्मुखे हि विचिक्षिपुः अग्निज्वालातिदुःखेन व्याकुलो निधनं गतः तन्देहं मुमुचुर्गर्ते प्रायः साहसिका स्त्रियः न ज्ञातं तद्रहस्यन्तु केनापीदं तथैव च लोकैः पृष्टा वदन्ति स्म दूरञ्यातः प्रियो हिनः आगमिष्यति वर्षेऽस्मिन् विप्तलोभविकर्षितः स्त्रीणान्नैव तु विश्वासं दुष्टानां कारयेद्बुधः विश्वासैयस्थितो मूढः स दुःखैः परिभूयते सुधामयं वचो यासां कामिनां रसवर्धनं हृदयं क्षुरधाराभं प्रियः को नाम योषितां संहृत्य वित्तन्तायाताः कुलटा बहुभर्तृकाः धुन्धकारी बभूवाथ महान् प्रेतः कुकर्मतः वाप्त्यारूपधरो नित्यं धावन् दश दिशोऽन्तरं शीतातपपरिक्लिष्टः निराहारः पिपासितः न लेभे शरणं क्वापि हा दैवेति मुहुर्वदन् कियत्कालेन गोकर्णः మృతం లోకాద బుభ్యత అనాథంతం విదిత్వైవ గయాశ్రాద్ధమచీకరత్ యస్మింస్తీర్థే తు సంయాతి తత్ర శ్రాద్ధమవర్తయత్ ఏవం భ్రమన్ స గోకర్ణః స్వపురం సముపేహివాన్ రాత్రౌ గృహాంగణే స్వప్తుం ఆగతో లక్షితః పరైః తత్ర సుప్తం స విజ్ఞాయ ధుంధుకారీ స్వబాంధవం నిశీథే దర్శయామాస మహారౌద్రతరం వపుః సకృన్మేషః సకృద్ధస్తే సకృచ్చ మహిషోభవత్ సకృదింద్రః సకృచ్చాగ్నిః పునశ్చ పురుషోభవత్ వైపరీత్యమిదం దృష్ట్వా గోకర్ణో ధైర్య సంయుతః అయం దుర్గతికః కోపి నిశ్చిత్యాథ్యతమబ్రవీత్ గోకర్ణ ఉవాచ కస్త్వముగ్రతరో రాత్రౌ కుతో యాతో దశామిమాం కిం వా ప్రేతః పిశాచో వా రాక్షసోసీతి శంసనః సూత ఉవాచ ఏవం పృష్టస్తదా తేన రురోదోచ్చైః పునః పునః అశక్తో వచనోచ్చారే సంజ్ఞామాత్రం చకారః తతోంజలౌ జలం కృత్వా గోకర్ణస్తముదైరయత్ తత్సేకహత పాపోసౌ ప్రవక్తుముపచక్రమే ప్రేత ఉవాచ అహం భ్రాతా త్వదీయోస్మి ధుంధుకారీతి నామతః స్వకీయేనైవ దోషేణ బ్రహ్మత్వం నాశితం మయా కర్మణో నాస్తి సంఖ్యామే మహాజ్ఞానే వివర్తినః లోకానాం హింసకః సోహం స్త్రీభిర్దుఃఖేన మారితః అతః ప్రేతత్వమాపన్నః దుర్దశాం చ వహామ్యహం వాతాహారేణ జీవామి దైవాధీన ఫలోదయాత్ అహో బంధో కృపా సింధో భ్రాతర్మామాశు మోచయ గోకర్ణో వచనం శ్రుత్వా తస్మై వాక్యమథాబ్రవీత్ గోకర్ణ ఉవాచ త్వదర్థం తు గయా పిండః మయా దత్తో విధానతః తత్కథం నైవ ముక్తోసి మమాశ్చర్యమిదం మహత్ గయా శ్రాద్ధాం న ముక్తిశ్చేత్ ఉపాయో నాపరస్త్విహ కిం విధేయం మయా ప్రేత తత్వం వద స విస్తరం ప్రేత ఉవాచ గయా శ్రాద్ధశతేనాపి ముక్తిర్మేన భవిష్యతే అపాయమపరం కంచిత్ త్వం విచారయ సాంప్రతం ఇతి తద్వాక్యమాకర్ణ్య గోకర్ణో విస్మయం గతః శతశ్రాద్ధైర్న ముక్తిశ్చేత్ అసాధ్యం మోచనం తవ ఇదానీం తు నిజం స్థానం ఆతిష్ఠ ప్రేత నిర్భయః త్వన్ముక్తి సాధకం కించిత్ ఆచరిష్యే విచార్య చ ధుంధుకారీ నిజస్థానం తేనాదిష్టస్తతో గతః గోకర్ణశ్చింతయామాస तां रात्रिं न ददध्यगात्। प्रातस्तमागतं दृष्ट्वा लोकाः प्रीत्या समागताः। तत्सर्वं कथितं तेन यच्चातं च यथा निशे विद्वांसो योगनिष्ठाश्च ज्ञानिनो ब्रह्मवादिनः। तन्मुक्तिं नैव ते पश्यन् पश्यन्तः शास्त्रसञ्चयान्। ततः सर्वै सूर्यवाक्यं तन्मुक्तौ स्थापितं परं। गोकर्णस्तम्भनं चक्रे सूर्यवेगस्य वै तदा। तुभ्यं नमो जगत्साक्षिं ब्रूहि मे मुक्तिहेतुकं। तच्छ्रुत्वा दूरतः सूर्यः स्फुटमित्यभ्यभाषत। श्रीमद्भागवतान्मुक्तेः सप्ताहं वाचनं कुरु इति सूर्यवचः सर्वैः धर्मरूपं तु विश्रुतं। सर्वे ब्रुवन् प्रयत्नेन कर्तव्यं सुकरं त्विदं। गोकर्णो निश्चयं कृत्वा वाचनार्थं प्रवर्तितः। तत्र संश्रवणार्थाय देशग्रामाज्जनाययोः पङ्गवन्धवृद्धमन्दाश्च तेऽपि पापक्षयाय वै। समाजस्तु महान् जातः देवविस्मयकारकः। तदैवासनमास्थाय गोकर्णो कथयत्कथां। सप्रेतोऽपि तदा यातः स्थानं पश्यं नितस्ततः। सप्तग्रन्थियुतं तत्रापश्यत् कीचकमुच्छ्रितं। तन्मूलच्छिद्रमाविश्य श्रवणार्थं स्थितो ह्यसौ। वातरूपी स्थितिं कर्तुम् अशक्तो वंशमाविशत्। वैष्णवं ब्राह्मणं मुख्यं श्रोतारं परिकल्प्य सः। प्रथमस्कन्धतः स्पष्टम् आख्यानं धेनुजो करोत्। दिनान्ते रक्षिता गाथा तदा चित्रं बभूवः। वंशैकग्रन्थिभेदोऽभूत् सशब्दं पश्यतां सतां। द्वितीयें हि तथा सायं द्वितीयग्रन्थिभेदनं। तृतीयें हि तथा सायं तृतीयग्रन्थिभेदनम्। एवं सप्तदिनैश्चैव सप्तग्रन्थिविभेदनं कृत्वा स द्वादशस्कन्धश्रवणात् प्रेततांजः। दिव्यरूपधरो जातः तुलसीदाममण्डितः। पीतवासाघनश्यामः मुकुटीकुण्डलान्वितः। ननामभ्रातरं सद्यः गोकर्णमिति चाब्रवीत्। त्वयाहं मोचितो बन्धः कृपया प्रेतकश्मलात्। धन्या भागवती वार्ता प्रेतपीडाविनाशिनी। सप्ताहोऽपि तथा धन्यः कृष्णलोकफलप्रदः। कम्पन्ते सर्वपापानि सप्ताहश्रवणे स्थिते। अस्माकं प्रलयं सद्यः कथा चेयं करिष्यते। आर्द्रं शुष्कं लघुस्थूलं वाङ्मनः कर्मभिकृतं श्रवणं विदहेत् पापं पावकः समिधो यथा अस्मिन् वै भारते वर्षे सूरिभिर्देव संसदे अकथा श्राविणां पुंसां निष्फलं जन्म कीर्तितम् किं मोहतो रक्षितेन सुपुष्टेन बलीयसा अध्रुवेण शरीरेण शुकशास्त्रकथां विना अस्ति स्तम्भं स्नायुबद्धं मांसशोणितलेपितं चर्मावनद्धं दुर्गन्धं पात्रं मूत्रपुरीषयोः जराशोकविपाकार्तं रोगमन्दिरमातुरं दुष्पूरं दुर्धरं दुष्टं सदोषं क्षणभङ्गुरं कृमिविड्भस्मसंज्ञान्तं शरीरमिति वर्णितम् अस्थिरेण स्थिरं कर्म कुतो यं साधयेम् नहे यत्रातः संस्कृतं चान्नं सायं तच्च विनश्यते तदीयरससम्पुष्टे काये का नाम नित्यता सप्ताह श्रवणाल्लोके प्राप्यते निकटे हरिः अतो दोषनिवृत्त्यर्थम् एतदेव हि साधनं बुद्बुदा इव तो येषु मशका इव जन्तुषु जायन्ते मरणायैव कथाश्रवणवर्जिताः जडस्य शुष्कवंशस्य यत्र ग्रन्थिविभेदनं चित्रं किमु तदा चित्तग्रन्थिभेदकथाश्रवात् भिद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः क्षीयन्ते चास्य कर्माणि सप्ताह श्रवणे कृते संसारकर्दमालेपप्रक्षालनपटीयसे कथातीर्थे स्थिते चित्ते मुक्तिरेव बुधै स्मृता एवं ब्रुवति वै तस्मिन् विमानमागमत्तदा वैकुण्ठवासिभिर्युक्तं प्रस्फुरद्दीप्तिमण्डलं सर्वेषां पश्यतां भेजे विमानं धुन्धुलीसुतः विमाने वैष्णवान् वीक्ष्य गोकर्णो वाक्यमब्रवीत् गोकर्ण उवाच अत्रैव बहवः सन्ति श्रोतारो मम निर्मलाः आनीतानि विमानानि न तेषां युगपत्कुतः श्रवणं समभागेन सर्वेषामिह दृश्यते फलभेदः कुतो जातः प्रब्रुवन्तु हरिप्रियाः हरिदासाऊचः श्रवणस्य विभेदेन फलभेदोऽत्र संस्थितः श्रवणन्तु कृतं सर्वैः न यथा मननं कृतं फलभेदस्ततो जातः भजनादपि मानद सप्तरात्रमुपोष्यैव प्रेतेन श्रवणं कृतं मननादि तथा तेन स्थिरचित्ते कृतं भृशम् अदृढं च हतं ज्ञानं प्रमादेन हतं श्रुतं संदिग्धो हि हतो मंत्रः व्यग्रचित्तो हतो जपः अवैष्णवो हतो देशः हतं श्राद्धमपात्रकं हतमश्रोत्रिये दानम् अराचारं हतं कुलं विश्वासो गुरुवाक्येषु स्वस्मिन् दीनत्वभावना मनोदोषजयैश्चैव कथायां निश्चला मतिः एवमादिकृतं चेत् स्यात् तदा वै श्रवणे फलं पुनः श्रवान्ते सर्वेषां वैकुण्ठे वसतिर्ध्रुवम् गोकर्ण तव गोविन्दः गोलोकं दास्यति स्वयम् एवमुक्त्वा ययुः सर्वे वैकुण्ठं हरिकीर्तनाः श्रावणे मासि गोकर्णः कथामोचे तथा पुनः सप्तरात्रवतीं भूयः श्रवणन्तः कृतं पुनः तकथा समाप्तौ यज्जातं श्रूयतां तच्च नारद विमानैः सह भक्तैश्च हरिराविर्बभूवः जयशब्दा नमः शब्दाः तत्रासन् बहवस्तदा पाञ्चजन्यध्वनिं चक्रे हर्षात्तत्र स्वयं हरिः गोकर्णं तु समालिङ्ग्याकरोत् स्वसदृशं हरिः श्रोतॄनन्यान् घनश्यामान् पीतकौशेयवाससः किरीटिनः कुण्डलिनः तथा चक्रे हरिः क्षणात् तद्ग्रामे ये स्थिता जीवाः आश्वचाण्डालजातयः विमाने स्थापितास्तेऽपि गोकर्णकृपया तदा प्रेषिता हरिलोके ते यत्र गच्छन्ति योगिनः गोकर्णेन स गोपालः गोलोकं गोपवल्लभं कथाश्रवणतः प्रीतः निर्ययौ भक्तवत्सलः अयोध्यावासिनः पूर्वं यथा रामेण सङ्गताः तथा कृष्णेन ते नीताः गोलोकं योगिदुर्लभं यत्र सूर्यस्य सोमस्य सिद्धानां न गतिः कदा तल्लोकं हि गतास्ते तु श्रीमद्भागवतश्रवात् भ्रुमोत्र ते किं फलवृन्दमुज्ज्वलं सप्ताह यद्येन कथासु सञ्चितं कर्णेन गोकर्णकथाक्षरो यैः पीतश्च ते गर्भगतान् भूयः माताम्बुपर्णाशनदेहशोषणैः तपोभिरुग्रैश्चिरकालसञ्चितैः योगैश्च संयान्ति न तां गतिं वै सप्ताहगाथाश्रवणेन यान्ति याम् इतिहासमिमं पुण्यं शाण्डिल्योऽपि मुनीश्वरः पठते चित्रकूटस्थः ब्रह्मानन्दपरिप्लुतः आख्यानमेतत् परमं पवित्रं श्रुतं सकृद्वै विदहेदघौघं श्राद्धे प्रयुक्तं पितृतृप्तिमावहेत् नित्यं सुपाठादपुनर्भवञ्च ॐ तत्स तत्सत् इति श्री पद्मपुराणे उत्तरखंडे श्रीमद्भागवत महात्म्ये गोकर्ण मोक्ष वर्णनं नाम पंचमोऽध्यायः। हरहि नमः हरहि नमः हरहि नमः। सदा सर्वत्र गोविंद नाम संकीर्तनम्। गोविंदा गोविंदा नारायणा अखिल गुरु भगवन् नमस्ते।